शुभदा भगिनी
ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः शान्तिः शान्तिः
ॐ
गुरुभ्यो नमः
क्षम्यताम् क्षम्यतां धन्यवादः भगिनि सर्वेषां स्वागतम् अस्मिन् वर्गे गतवर्गे वयम् अभियानि इति विषये एकां कथां पठितवन्तः अन्धाय अनन्दाय देहि इति तत्र तस्मिन् विषये किञ्चित् चर्चां कुर्मः अद्यापि तदनन्तरम् अग्रे गच्छामः तत्र यदा तदा यथा तथा इति विषयेषु वर्गः भवति किन्तु प्रथमतया अभियानि इति विषये या कथा आसीत् तस्यां कथायाम् अनेकाः अंशाः आसन् इति कृत्वा तत्र पुनस्मरणमपि कुर्मः तत्र अपि तत्र किम् अवगन्तव्यम् आसीत् इति तदपि पश्यामः अस्तु तर्हि तत्र अद्य अहं चिन्तितवान् एतादृश अभ्यासं कुर्मः इति तत्र किं क्रीडा इति रूपेण अहम् आरम्भं करोमि अहं कामपि अथवा कमपि प्रश्नं पृच्छामि उत्तरं दत्वा यः अथवा या उत्तरं ददाति सः अथवा सा पुनः अन्यान् प्रश्नं प्रष्टुं शक्नोति कथायाः विषये समीचीनं वा सर्वे अवगच्छन्ति वा क्रीडा का इति तत्र के सन्ति इति पुनः एकवारम् अहं वदामि तत्र लक्ष्मी भगिनी अस्ति ललिता भगिनी अस्ति उषा भगिनी अस्ति वेदा भगिनी अस्ति शुभदा भगिनी अस्ति शोभा भगिनी अस्ति नरेश महोदय अस्ति मधुसूदन महोदय अस्ति अस्तु तर्हि तत्र अहम् आरम्भं करोमि तत्र उषा भगिनी सुवर्चला का
सुवर्चला गुणवती कन्यका अस्ति देवलस्य पुत्री अपि अस्ति
अस्तु इदानीं भवत्याः पर्यायः भवती अन्य पृच्छतु तत्र 157 महोदय मधुसूदन महोदय 157 गतवर्गे तत्र अन्धाय अनन्दाय देहि इति गीतासोपने पेज् 157
महोदय
अहं
गीतासोपानम् उद्घाटितुं न शक्नोमि फार् सम् रीज़न्
इति वा भगिनि तत्र क्लेशः अस्ति वा तत्र न जानामि किम् अस्तु भगिनि अस्तु भगिनि न जानामि किमर्थं तद् प्रायशः तत्र अस्तु भगिनि अस्तु अतः उषा भगिनी अन्यान् पृच्छतु इदानीम्
आं महोदय वेदा कृते
देवलः सुवर्चलायाः
पिता अस्ति अपि किञ्चित् अधिकम् अपि वक्तुं शक्नोति वा भगिनि
सुवर्चला
न देवलस्य विषये
देवलः शास्त्र कोविदः अस्ति अत एव धर्मम् आचरति ऋषिः एव आसीत्
ऋषिः अस्ति समीचीनं भगिनि अस्तु धन्यवादः इदानीं भवती पृच्छतु
सुवर्चला
न तत्र कः कस् काम् प्रति अथवा कं प्रति प्रश्नमस्ति
ओ शुभदा भगिनी.
शुभदा भगिनी यत् स्मरति तद् वदतु भगिनी, हा चिन्ता मास्तु.
ओ ओ सारी, अदर्वैस् केन् ऐ से सम्बडी एल्स्?
शुभदा
भगिनी इस् ओके?
No, sorry, I'm not able to open it. Still trying.
Shobha bhagini astu.
Suvarchala, Suvarchala, Tasya, not Tasya, her, mama, her.
Suvarchala yaha.
पितरं किम् उक्तवती विवाह विवाहविषये?
सुवर्चलायाः पिता किम् उक्त? समीचीनं, किम् उक्तवती? अस्तु
अस्तु, सुवर्चला उक्तवती यत् सा इच्छति यः अन्धः अपि अनन्दः अपि अस्ति तादृशः वरः तस्याः कृते तस्याः पिता ददातु इति. यदा
देवः
स्वस्य पुत्र्याः कृते वरान्वेषणं कर्तुम् आरम्भति तदा सः पुत्रीं पृष्टवान् कीदृशः वरः सा इष्टति इति. तदा सा एतत् उक्तवती यत्
समीचीनं
माम् अनधाय अनन्धाय देहि इति.
समीचीनम् अस्तु, इदानीं शोभा भगिनी.
तदा देवलः पुत्रीं किम् उत्तमान् एकनिमिषं महोदय, तत्र ललिता भगिनी
उत्तरं ददामि. तं तत् श्रुत्वा देवलः आश्चर्येण वदति कि किमर्थम् अन्धाय अनन्दाय देहि इति उक्तवती, उन्मत्त अस्ति वा इति पृष्टवान्
इति पृष्टवान्. समीचीनं भगिनि, ललिता भगिनी अग्रे भवती पृच्छतु.
तस्य उत्तरं
न इदानीं भवती पृच्छतु, अन्यान् पृच्छतु. तत्र लक्ष्मी
अस्तु,
नरेश् महोदय, मधुसूदन महोदय,
किम् इति श्रुत्वा पिता देवलः किं वदति देवलः न सुवर्चला किं वदति?
अस्तु
प्रश्नं
न लक्ष्मी भगिनी, तत्र
सुवर्चला उन्मत्त अस्ति इति पिता चिन्तितवान्. तत् श्रुत्वा सुवर्चला किं वदति?
सुवर्चला अहं न उन्मत्ता, माम् अन्धाय अनन्दाय देहि इति पितरम् अवदत्.
अपि तदनन्तरम् अपि अन्यदपि उक्तवती भगिनी, तत्र कथं पश्यतु, तत्र किञ्चित् अधिकमपि वक्तुं शक्नोति.
भवान् केभ्यः मां दातुम् इच्छति तादृशान् ऋषिकुमारान् अत्र आनयतु, अहं चिनोमि
अहं तेषु चिनोमि
तेषु योग्यं चिनोमि इति सा उक्तवती.
समीचीनं भगिनि, समीचीनं. हा, धन्यवादः. इदानीं लक्ष्मी भगिनी भवती पृच्छतु. तत्र नरेश मोदी अस्ति, मधुसूदन मोदी अस्ति, अपि पुनः उषा भगिनी प्रष्टुं शक्नोति तत्र. अतः तत्र प्रश्नः कं प्रति प्रश्नः अथवा कां प्रति प्रश्नः इदानीं
नरेश
महोदय, नरेश महोदय, अस्तु.
सुवर्चलायाः विवाहार्थं देवलः किं कृतवान्?
देवलः ऋषिकुमारान् आनेतुं सर्वेभ्यः आश्रमः आश्रमेभ्यः शिष्यान् प्रेषितवान्. तदा बहूनि ऋषिकुमारान् आश्रमे आगताः.
बहवः ऋषिकुमाराः आश्रमे आगताः सन्ति. तस्मिन् समये सः किं कृतवान् महोदय? सः
सः सुवर्चलां पृष्टवान् किं करोति. सुवर्चला अवदत् अहं अन्धाय अनन्धाय परिणेतुम् इच्छामि.
हा, अस्तु. अहम् अन्धम् अथवा तत्र अन्धम् अथवा अन्धम् अनन्दं परिणेतुम् इच्छामि, अथवा मम पिता अन्धाय अनन्दाय मां दास्यति. समीचीनम्. अस्तु अस्तु, इदानीं भवान् पृच्छतु. अवं शिशुदा भगिनी, नमस्कारः.
नमस्ते महोदय.
नमस्कारः भगिनी. पेज् 157 मध्ये स्मः, तत्र कथा अस्ति, सुवर्चलायाः कथा अस्ति. इदानीं किन्तु अत्र क्रीडा अस्ति, सर्वे प्रश्नं पृच्छन्ति अन्यान्, उत्तरं दत्वा यदि उत्तरं ददाति तदा प्रश्नमपि प्रष्टुं शक्नोति. अतः केवलं क्रीडार्थं तावदेव. अस्तु, इदानीं नरेश महोदय पृच्छति अथवा कां पृच्छति?
उषा भगिनी.
उषा भगिनी, उषा भगिनी, अस्तु.
यदा सुवर्चला ऋषिकुमारान् अवदत् अन्धम् अनन्धं विषये अवदत् तदा किम् अभवत्?
इत्युक्ते किं महोदय?
तत्र सुवर्चला वदति खलु भगिनि, तत्र मम पिता यः अन्धः अस्ति अनन्दः अस्ति तस्मै मम पिता मां दास्यति इति सुवर्चला उक्तवती खलु.
दास्यामि.
हा हा, तस्मिन् समये तदनन्तरं किम् अभवत्? ऋषिकुमारः किं कृतवन्तः इति प्रश्नः.
सुवर्चला किं
न सुवर्चला एतद् उक्तवती, तदनन्तरं ऋषिकुमारः किं कृतवन्तः?
ऋषिकुमारः सुवर्चलायाः वचनं श्रुत्वा विस्मिताः जातः.
अनन्तरं
सर्वे परस्परं मुखं दृष्ट्वा असन्तोषेण देवलं कटुवचनैः निन्दित्वा स्वस्थानाय गतवन्तः
स्वाश्रमं गतवन्तः
अनन्तरं सुवर्चला सन्तोषेण पितृगृहे आसीत्
एव आसीत् समीचीनं भगिनि. इदानीं भवती पृच्छतु.
तत्र देवलस्य
किन्तु प्रथमतया कः उत्तरं दास्यति इति तद् तद्
आगतवान् तत्र महोदय. अहं प्रश्नं
भगिनि इदानीं तावदेव. इदानीं भगिनी भवती प्रश्नं पृच्छतु अन्यान्.
अस्तु महोदय,
अग्रे किं भवति इति प्रश्नः पृच्छतु.
चिन्तयामि महोदय.
कः प्रश्नः अपि कः उत्तरं का उत्तरं ददाति इति.
श्वेतकेतुः कः
इति. अस्तु, कः उत्तरं दास्यति?
शोभा भगिनी.
अस्तु,
श्वेतकेतुः एकः ऋषिकुमारः आसीत्, अपि च सः न्यायविशारदः अपि आसीत्. अपि सः किमपि देवलस्य आश्रमे अभवत् तस्य वृत्तान्तं श्रुतवान् आसीत्. तदेव सुवर्चलां मेलितुं सः तत् आश्रमे आगतवान्.
अस्तु भगिनि, तत्र सुवर्चलया सह मेलितुम् इति.
ओ, सुवर्चला
तत्र तृतीयविभक्ति अस्ति भगिनि. मेलितुम् इति तत्र प्रायशः अकर्मक अस्ति. न भवति इति मन्ये भगिनि. सुवर्चलया सह मेलितुम्. सुवर्चला तत्र लता लतया
सह मेलितुम्.
सुवर्चलया सह मेलितुम्. सुवर्चलया तृतीया भगिनी खलु.
अस्तु, तृतीया
सुवर्चला. सुवर्चलया लता लतया सुवर्चलया सह मेलितुम्.
अस्तु, इत्युक्ते महोदय वयं द्वितीयविभक्तौ उपयोगं न कर्तुं शक्नुमः
लेखितुमस्ति
चेत् न कर्तुं शक्नुमः वा
अथवा मन्ये भगिनि नास्ति इति मन्ये. द्रष्टव्यमस्ति किन्तु तत्र किन्तु प्रश्नः समीचीनः एव. किन्तु धातु तु अकर्मकः अस्ति इति कृत्वा तत्र अहम् एतत् मम चिन्तनमस्ति, किन्तु पुनः दृष्ट्वा वदामि. मिल् धातुः अकर्मकः इति. अस्तु, किं भगिनि वंशीसुधा भगिनि, किं
मिल् धातु अकर्मकः अस्ति अतः, परन्तु सेट् अस्ति अतः मेलितुं भवति महोदय.
मेलितुं अस्तु, समीचीनं भगिनि, धन्यवादः. अस्तु, इदानीं शोभा भगिनि.
अहं वंशीसुधा भगिनीमेव पृच्छामि महोदय.
अस्तु, वंशीसुधा भगिनि, कथां स्मरति वा भगिनि तत्र सुवर्चलायाः कथा?
पुरतः अस्ति वा भगिनि
पुस्तकम् अस्ति.
भवती कर्तुं शक्नोति इति अहं मन्ये.
प्रयत्नं करोतु भगिनि, नो चेत् चिन्ता मास्तु. अन्यान् अन्यान् भवती वदतु एषः अथवा एषा वदति इति तावदेव
अधुना श्वेतकेतुः सुवर्चलायाः ख्यातिं श्रुत्वा तत्र देवलस्य आश्रमम् आगतवान् तदा देवलः किं कृतवान्
देवः किं कृतवान् भवत्याः
देवलः
किं
पिता
ओ दे अस्तु अस्तु देवलस्य अस्तु देवल स्वच्छलायाः
वाक्यमस्ति भगिनि परिच्छेदस्य आरम्भे देवलः तम् इति परिच्छेदस्य आरम्भवाक्यम्
आम् आम्
तं विधिवत् सम्पूज्य इति भगिनि
आम् आं महोदय विधिवत् सम्पूज्य पुत्रीम् उक्तवान् तत्र देवलः पुत्रीम् उद्दिश्य वदति उद्दालस्य पुत्रः एव अस्ति श्वेतकेतुः महाज्ञा प्रज्ञानः ज्ञानिः अस्ति अतः परन्तु वरय इत्युक्ते त्वं कल्याणं करोतु वा
वरं समीचीनं भगिनि तदनन्तरं किं भवति अग्रिमवाक्यम्
अग्रिमपरिचय एतत् श्रुत्वा सुवचला कुपिता भवति अभवत्
तावदेव इदानीं भवती अन्यान् पृच्छतु अग्रे किं भवति इति
अहं वेदा भगिनीं पृच्छामि वा एतत् श्रुत्वा किमर्थं सुवच्छला कुपिता भवति अपि च किम् उक्तवती पितुः वाक्यानि श्रुत्वा किमर्थं कुपिता भवति अपि च किम् उक्तवती
किं कुपिता भवति
किमर्थम्
उद्यालकस्य पुत्र एव श्वेतकेतुः पितुः एक पुनः एक वरं वरं ग्रूम् वाट् इस् ए संस्कृत
वरः वरः
वरः एक एक वरः पुनः आनयति अत एव सुवर्चला कुपिता अभवत् तदा श्वकेतुः ताम् अवदत् सुवर्चला श्वेतकेतुः सुवर्चला अवदत् अहम् अन्धः अस्मि ओह् सारि श्वेतकेतुः सुवर्चलाम् अभवत् अवदत् अहम् अन्धः अस्मि आनन्दः इति कथम् इति सुवर्चला अपृच्छत्
हा अस्तु भगिनि अस्तु धन्यवादः इदानीं वेदा भगिनी भवती पृच्छतु
किं किम् अस्ति अत्र मधुसूदन् महोदय
हा अस्तु
मधुसूदन् महोदय स्वकेतुः अवदत् परमानु
इदानीं
श्वेतकेतु प्रश्नं करोति न सारि सुवर्चलायां श्वेतकेतुः किम् अवदत् अन्धः आनन्दः विषये
सुवर्चलायां श्वेतकेतुः अवदत् श्वेतकेतु अवदत् परमात्मनः कारणादेव जीवात्मा अहं पश्यामि इति पश्यामि शृणोमि जिघ्रामि वा परमात्मा एव चक्षुः वस्तुतः सः एव पश्यति इति अतः अहम् अन्धः इति उक्तवती
अस्तु अग्रे अपि वक्तुम् इच्छति चेत् वदतु महोदय, चिन्ता मास्तु. अस्तु 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 हा तत्र अत्र एव मूलविषयः अस्ति, अतः तत्र एतद् मिलित्वा परिशीलयामः. तत्र किम् अस्ति, तत्र सुवर्चला किम् उक्तवती, सा कीदृशवरः भवे कीदृशं वरम् इच्छति इति इत्युक्ते, यः अन्धः अस्ति अनन्दः अपि अस्ति सः एव योग्यः इति तस्याः चिन्तनम् अस्ति. अत्र किं श्वेतकेतुः वदति, अहम् अन्धः अस्मि अनन्दः अपि अस्मि इति सः वदति. अतः सा पृच्छति, तं पृच्छति, तं श्वेतकेतुं पृच्छति, भवान् एतद् उक्तवान् तत् कथम् इति विवरणं करोतु, समाधानम् अपेक्षितम् अस्ति इति सा पृच्छति. अतः श्वेतकेतुः वदति, परमात्मनः कारणादेव जीवात्मा अहं पश्यामि. तत्र परमात्मनः इति विभक्ति का? आत्मनः इति तत्र हलन्तपदम् अस्ति, पञ्चमी भवति, किन्तु अत्र
षष्टि,
अत्र षष्टि,
हा अत्र षष्टि इति मन्ये. तस्य कारणात् एव, परमात्मनः कारणात् एव जीवात्मा अहम्, अहं जीवात्मा अहं कथं द्रष्टुं शक्नोमि इत्युक्ते, तत्र किं कारणम् इत्युक्ते, तत्र परमात्मा एव कारणम्, अतः एव अहं जीवात्मा अस्मि. किन्तु अहं किमर्थं द्रष्टुं शक्नोमि इत्युक्ते, तत्र परमात्मनः कारणात् एव, अन्यकारणः तत्र नास्ति, तस्य कारणादेव अहं द्रष्टुं शक्नोमि, शृणोमि, जिघ्रामि, सर्वं कर्तुं शक्नोमि परमात्मनः कारणात्. परमात्मा एव चक्षुः, अतः कारण परमात्मा नास्ति चेत् तत्र अहं न द्रष्टुं शक्नोमि. अतः सः एव चक्षुः, वस्तुतः सः एव पश्यति, न अहं. यतः अहं न पश्यामि, अहम् अन्धः अस्मि, अहं न पश्यामि अतः अहम् अन्धः अस्मि इति सः, अहम् अन्धः इति यत् उक्तवान् तस्य समाधानं ददाति. इदानीम् अहम् अनन्दः अपि उक्तवान् खलु, इदानीं तस्य समाधानमपि अपेक्षितम् अस्ति, अतः सः अग्रे वदति एवम् अहम् अन्धः इति. इदानीं तत्र किन्तु मम कदापि संशयः न भवति, संशयः न भवति. कस्मिन् विषये संशयः न भवति? अहम् अन्धः इति, अहं न पश्यामि इति विषये समीचीनम्, अहं न पश्यामि, अहं न पश्यामि इति विषये संशयः कदापि न भवति. सर्वदा वयं चिन्तयामः, वयमेव पश्यामः, वयमेव सर्वं कुर्मः इति खलु, कर्तृत्वभावः, कर्तृत्वभावः इति अस्ति तत्र. अतः वयमेव कर्ता, अहमेव कर्ता इति भावः अस्ति खलु, अतः तत्र कदापि संशयः, मम संशयः कदापि नास्ति, न भवति एव. अतः संशय अभावरूपम्, तत्र भावः नास्ति, तत्र संशययोगः भावः न, तत्र संशयः योगः अभावरूपम्. अभावः इत्युक्ते नास्तित्वं, तत्र घटः अस्ति अस्ति. इदानीं तत्र न्यायशास्त्रे वदामः, घटः नास्ति चेत् व्यवहारः कीदृशः इत्युक्ते, घटः नास्ति इति न वदन्ति, घटाभावः अस्ति इति वदन्ति. तत्र घटाभावः अस्ति, घटः नास्ति इति न वदन्ति, घटस्य अभावः अस्ति, घटाभावः अस्ति इति वदन्ति. अत्रापि संशयः नास्ति इति न उक्त्वा संशय अभावः अस्ति. तादृशसंशय अभावरूपं चक्षुः, चक्षु कीदृशचक्षुः इत्युक्ते यस्मिन् संशयस्य अभावः
अस्ति,
तादृशरूपं चक्षुः. किमर्थं रूपम् इति अस्ति चक्षुः? किमर्थं रूपः इति नास्ति? चक्षुः नपुंसकलिङ्गपदम् इति कृत्वा, हा समीचीनम्. अतः संशयाभावरूपं चक्षुः मम अस्ति, अतः अहम् अनन्दः. तत्र संशयः कदापि नास्ति मम चक्षु मम चक्षुषि संशयः तत्र कदापि नास्ति. अतः तत्र अहं सर्वदा चिन्त्यम् अहमेव पश्यामि, अतः अहं द्रष्टुं शक्नोमि, अहमेव पश्यामि, अतः अहम् अनन्दः. अतः अहम् अन्धः अपि अस्मि, अनन्दः अपि अस्मि. अतः द्वयस्य अपि सः समाधानं ददाति. एतत्
रूपमस्ति परमात्मा मम चक्षुः, परमात्मा
चक्षुः
शृणोमि अहं पश्यामि. अनन्तरं रूपमस्ति संशयभावरूपचक्षुः.
हा संशयभाव तत्र तत्र सः तत्र वयमपि एतदेव कुर्मः खलु. केचन समये कस्मिन् समये वयं चिन्तयामः अस्तु परमात्मा अस्ति सः एव एतत् सर्वं करोति इति चिन्तयामः. अन्यस्मिन् समये वयं चिन्तयामः अहम् एतत् कृतवान् एतत् कृतवती इति चिन्तयामः खलु. अतः यदा परमात्मन विषये तद् उत्तरं भवति तस्य प्राधान्यम् अस्ति तदा वयम् अन्धः इति चिन्तयामः. यदि अहम् इति तादृशभावः तस्य प्राधान्यम् अस्ति तदा वयम् अहम् आनन्दः इति चिन्तयामः. अतः द्वयमपि अस्ति. समीचीनं वा उषा भगिनी, उत्तरं प्राप्तं वा भगिनी?
आं महोदय. घटस्य अभावेन इत्युक्ते यदा मृत्तिका अस्ति तत् अहं मृत्तिका इति वदामः, यदि कुम्भकारः रूपं ददाति
साक्षात् घटः अस्ति चेत् घटः अस्ति, किन्तु यदि तत्र चिन्तयतु तत्र प्रकोष्ठे घटः अस्ति, इदानीं अन्य कोऽपि आगच्छति घटां स्वीकृत्य अन्यत्र गच्छति, इदानीं तत्र घटः नास्ति. तस्मिन् विषये तस्मिन् सन्दर्भे किं वदामः? घटाभावः अस्ति इति. यदि सः पुनः तत्र घटः अस्ति इति न वदामः, घटः नास्ति एव इति वदामः. घट अभावः तत्र घटभावः न, घट अभावः भावस्य विरुद्धार्थपदम्.
किमर्थं यदा घटः न अस्ति घट नास्ति इति वदेमः न महोदय? घटस्य
सत्यं भगिनि, न न तत्तु लोके भवति सत्यं, किन्तु अत्र अभावः इति पदं स्वीकृतमस्ति, अतः तस्य विवरणम् आवश्यकम् इति कृत्वा एतद् वदामि तावदेव. यदि तत्र संशयः नास्ति इति आसीत् चेत् अभावस्य विषये किमपि न वक्तव्यम् आसीत्, किन्तु अत्र संशय अभावरूपं चक्षुः इति पदमस्ति अत्र, अतः तस्य विवरणं करणीयं खलु. अतः एव अतः अभावः इत्युक्ते किमपि नास्ति इति तावदेव तस्य अर्थः. तत्र न्यायशास्त्रे तत्र अभावः इत्युक्ते चतुर्विध अभावाः सन्ति इति सर्वम् अग्रे तत्र अस्ति, किन्तु इदानीं मास्तु, केवलं तत्र अभावः इत्युक्ते किमपि नास्ति. संशय अभावः इत्युक्ते संशयः नास्ति. तादृशः चक्षुः तादृशं चक्षुः यस्मिन् संशयः नास्ति मम चक्षुः अस्ति, अतः अहम् आनन्दः इति तावदेव. अस्तु, अन्यप्रश्नः अस्ति वा? तदनन्तरं तु किं तत्र सर्वं सन्तोषजनकविषयः एव अस्ति, अत्र किमपि वक्तव्यं नास्ति, अतः अग्रे गच्छामः.
विधिवत् देवलः विधिवत् सम्पूज्य पुत्रीम् उक्तवान्. यदि पृच्छामः चेत् देवलः कीदृशरीत्या
श्वेतकेतुं
पालनपोषणयोगो विधिवत् इत्युक्ते विधिवत् इत्युक्ते
तत्र पालनपोषय विषये नास्ति
न महोदय, क्षम्यताम्. विधिवत् इत्युक्ते विधि आचरति रे
इत्युक्ते यत् उक्तमस्ति शास्त्रे अथवा शास्त्रेषु अथवा परम्परया यत् वयं पठितवन्तः जानीमः, ये अस्मिन् सन्दर्भे एतस्मिन् सन्दर्भे किं कर्तव्यं कथं चिन्तनं भवेत् इति तत् सर्वम् अनुसृत्य सः अतिथिसत्कारं करोति इति कृत्वा विधिवत् सम्पूज्य इति अस्ति.
यदि प्रश्नं पृच्छामि चेत् कीदृशरीत्या
रीत्या इति तृतीयविभक्ति अस्ति.
कया रीत्या
सः श्वेतकेतुं श्वेतकेतोः उपचारं कृतवान्
अथवा
स्वागतं कृतवान्
उपचारं कृतवान्
इति.
अस्तु महोदय,
समीचीनं भगिनि.
कीदृशरीत्या कीदृश उपयोगं कृत्वा एकः प्रश्नः
करोति चेत् तत्र तृतीयविभक्ति अपेक्षितमस्ति, अतः कीदृशी इति अस्ति. कीदृशी इति ईकारान्तपदमस्ति, तस्य तृतीयविभक्तिरूपं किम्?
कीदृशी नदी शब्दवत् न महोदय, नद्या कीदृश्या कीदृश्या संस्कारं कृतवान्
रीत्या
अपि उपयोगं कुर्मः. कीदृश्या रीत्या देवलः संस्कारं कृतवान्
इति अस्ति भगिनि. अस्तु वा?
अस्तु धन्यवादः.
चिन्ता मास्तु भगिनि. अस्तु, अतः अत्र अस्मिन् अस्यां कथायां मूलविषयः कः इत्युक्ते अव्ययानि. तत्र इति, इव, एव, तदा, यदा दृष्ट्वा तत्र त्वान्तरूपं, ल्यबन्तरूपं, तुमुन् रूपं सर्वं तत्र अव्ययानि इति मूलविषयः अस्ति. अग्रे अव्ययानि इति विषये एव तत्र पाठः अपि भवति. तत्र प्रथमतया अपि इति विषये किञ्चित्, तदनन्तरं यदा तदा, तदनन्तरं यथा तथा इति तद् अद्य कर्तुं शक्नुमः इति मन्ये. तदनन्तरं यत्र इति प्रायशः अग्रिमे वर्गे भवति इति मन्ये. अस्तु, अतः इदानीम् अग्रे गच्छामः अग्रिमे पुटे. तत्र वंशीसुधा भगिनी आरम्भं कर्तुम् इच्छति वा?
आं महोदय.
अस्तु,
पठामि वा?
अवधेयम्
त्रिषु लिङ्गेषु सप्तसु विभक्तिषु त्रिषु वचनेषु च यत् विकारं न प्राप्नोति तत् अव्ययम्. सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु वचनेषु च सर्वेषु यन्न यत् न व्येति तद् अव्ययम्. तत्र लिखितमस्ति यत् त्रिषु लिङ्गेषु अपि च त्रिषु वचनेषु त्रिषु विभक्तिषु क्षम्यतां विभक्तिषु यत्र परिवर्तनं न भवति तत् पदम् अव्ययम्.
तत्र समानरूपं भवति, तत्र रूपपरिवर्तनं
न भवति
यदा विभक्ति अन्यविभक्तिरूपं अन्या विभक्ति कर्तुम् इच्छामः अथवा वचनपरिवर्तनं विभक्तिपरिवर्तनं वा लिङ्गपरिवर्तनं कर्तुम् इच्छामः तत्र रूपपरिवर्तनं तु कदापि न भवति. तादृशपदम् अव्ययम् इति वदामः.
तत्र व्येति इति धातु किं महोदय? व्येति
तत्र उपसर्गः अस्ति वा न वा इति प्रश्नः वा भगिनी?
सर्वेषु यत्ना व्येति तदव्ययम् अर्थं किं तत्र धातु?
तत्र व्ययः इति व्ययः तत्र तत्र व्ययः इति इत्युक्ते तत्र चन्द्रस्य व्ययः भवति खलु तत्र उपरि गच्छति अधः गच्छति इति तत्र, किन्तु तादृश न भवति इति
न परिवर्तते यणसन्धि भवति.
वंशी सुधा भगिनी
वियोगः
एति एति इत्युक्ते
इति लक्ष्मी भगिनी सी विद्या भगिनी अव्ययी समासविषये उक्तवती अतः अहं वदामि.
समीचीनमेव. तत्र एति इति तत्र केचन जानाति अत्र एति इत्युक्ते किम् इति उपायति इति केचन अत्र जानन्ति. एति इत्युक्ते किं कोऽपि स्मरति वा? अस्तु, तत्र वियोगः एति इति एति इत्युक्ते गच्छति इति अर्थे अस्ति. किन्तु वियेति इति तस्य किञ्चित् परिवर्तनम् अस्ति अर्थे इति मन्ये.
एति इत्युक्ते न परिवर्तते इति
न प्रपायश तदपि अस्ति, किन्तु तत्र एति इति गच्छति अपि इति अर्थः अस्ति. अस्तु, वंशीसुध भगिनी अन्यप्रश्नः
न महोदय? तत् स्पष्टम् अस्तु.
अस्तु
कोऽपि पुस्तकस्य लिङ्क् चेट् मध्ये दातुं शक्नोति वा? सोरि फार् इण्टरप्षन्
भगिनी. तत्र न जानामि यदि कस्य पुस्तकम् अस्ति न वा इति. तत्र
मम पार्श्वे अस्ति महोदय, डौन्लोड् प्रेषयामि इति, किन्तु अहं न जानामि अत्र पेज् अपि उद्घाटनं कृतवती, कथं लिङ्क् एव प्रेषयामि वा? यदि मम सङ्गणके अस्ति चेत्
जालपुटे अस्ति चेत्
कथं सेव् करोमि वा? सेव् कृत्वा किन्तु ओ भवती पुस्तकम् इच्छति न तु पुटं
पुस्तकं वा
पुटस्य प्रायश स्क्रीन्शाट् कृत्वा प्रेषितुं शक्नोति भगिनी भवती चाट् मध्ये.
महोदय मम पार्श्वे ऐ बुक्स् मध्ये अस्ति महोदय, ईमेल् अस्ति चेत् अहं प्रेषयामि महोदय.
अस्तु, किन्तु तत्र समयस्य समयं दृष्ट्वा कुर्मः. अद्य अग्रे गच्छामः. शुभदा भगिनी, तत्र अग्रे गच्छामः, किन्तु भवती शृणोतु भगिनी अद्य, नो चेत् अत्र एव बहु समयः गच्छति.
प्रेषितवान्.
ओ अस्तु, वाट्सप् मध्ये अस्ति वा भगिनि? शुभदा भगिनि,
अहम् एकं पृष्ठं
वाट्सप् मध्ये
वाट्सप् मध्ये अस्ति वा भवती?
अहमस्मि
अत्र. अस्तु, तत्र तत्र पश्यतु अतः.
158
नरेश महोदय प्रेषितवान्.
महोदय तत्र व्येति इति पेरिश् इति अर्थः अपि भवति महोदय, अतः
अहं केवलं तत्र एति इति विषये उक्तवान् भगिनि.
आमां
महोदय. अस्तु अस्तु भगिनि,
यथा त्रिषु लिङ्गेषु कृष्णः अपि युध्यते पृतना इत्युक्ते सेना अपि युध्यते सैन्यम् अपि युध्यते कृष्णः अपि युध्यते पृतना अपि युध्यते सैन्यम् अपि युध्यते अत्र अपि इति रक्तवर्णे अस्ति अतः अमी अस्ति कुत्रापि परिवर्तनं न भवति अतः तत् पदम् अव्ययम् अस्ति महोदय
तत्र किं निदर्शितम् अस्ति तत्र केवलं तद्दृष्ट्वा तत् अव्ययम् इति न वक्तुं शक्नुमः खलु तत् क्रियापदमपि भवितुम् अर्हति वा
क्रियापदं न परिवर्तते महोदय अत्र
अतः केवलम् एतद् वाक्यत्रयं दृष्ट्वा किं वक्तुं शक्नुमः लिङ्गभेदः नास्ति इति वक्तुं शक्नुमः खलु तावदेव वक्तुं शक्नुमः इदानीम् अग्रे गच्छतु
सप्तसु विभक्तिषु कृष्णः अपि तुष्यति कृष्णम् अपि पश्यतु भवान् कृष्णेन सह अपि गच्छामि कृष्णाय अपि देहि कृष्णात् अपि स्वीकरोतु कृष्णस्य अपि अनुग्रहम् इच्छामि कृष्णे अपि भक्तिः अस्तु तत्र सप्तसु विभक्तिषु अपि तत्र अपि प्रयुज्यते तत्रापि कुत्रापि परिवर्तनं न भवति तस्य प्रभावः न भवति यतोहि तत् पदम् अव्ययम् अस्ति महोदय
इदानीं तत्र विभक्तिभेदः नास्ति वक्तुं शक्नुमः इदानीम् अग्रे तत्र
त्रिषु वचनेषु योद्धः अपि युद्धं करोति योद्धौ अपि युद्धं कुरुतः योद्धाः अपि युद्धं कुर्वन्ति तत्रापि वचनेषु अपि तत्र वचनमपि न परिवर्तते यतोहि अव्ययमस्ति अतः एकवचनेषु द्विवचनेषु बहुवचनेषु अपि तस्य परिवर्तनं न भवति
अतः सर्वं मिलित्वा तत्र लिङ्गभेदः नास्ति विभक्तिभेदः नास्ति वचनभेदः नास्ति अतः अव्ययं केवलम् एकं दृष्ट्वा तत्र अव्ययम् इति न वक्तुं शक्नुमः सर्वं भवेत् खलु लिङ्गभेदः तत्र न भवेत् विभक्तिभेदः न भवेत् वचनभेदः न भवेत् इति सर्वम् अतः सर्वे अतः तत्र सर्वदा समानं समानरूपं यस्य अस्ति तद् अव्ययम् इति समीचीनं भगिनि अस्तु
एतेषु सर्वेषु वाक्येषु इत्यस्य
क्षम्यतां शुभदा भगिन्या हलो शुभदा भगिन्या ईमेल् प्रेषितवती स्क्रीन्शाट्
धन्यवादः
ईमेल् मध्ये
अहं पश्यामि धन्यवादः
एतेषु सर्वेषु वाक्येषु अपि इत्यस्य कोऽपि विकारः नैव जातः तत् सर्वत्र अपि समानतया एव अस्ति अव्ययानि एवमेव तिष्ठति
अव्ययानि एवमेव तिष्ठन्ति समीचीनं भगिनि अतः तत्र लिङ्गभेदः नास्ति विभक्तिभेदः नास्ति वचनभेदः यस्य नास्ति तद् अव्ययम् इति अस्तु इदानीम् अग्रे लक्ष्मी भगिनी आरम्भं करोति वा अग्रे तत्र यदा तदा इति अव्ययम् अस्ति
यदा तदा यथा तदा यत्र तत्र इत्यादीनि नित्यसम्बन्धानि अव्ययानि
नित्यसम्बन्धानि सम्बद्धानि
अव्ययानि तन्नाम यत्र यदा इत्यस्य प्रयोगः अस्ति तस्मिन् वाक्ये तदा इत्यस्य अपि प्रयोगः भवति उदाहरणे यदा ज्ञानसूर्यः उदेति तदा हृदयकमलं विकसति यदा तमः वर्धते तदा व्यामोहः भवति
तत्र किञ्चित् विवरणं करोति वा यदा ज्ञानसूर्यः उदेति तदा हृदयकमलं विकसति इति लक्ष्मी भगिनि
यदा समयं सूचयति यदा कालं सूचयति यदा
तदा तत्र यदा प्रथमं भवति तदा द्वितीयं भवति इति तत्र ज्ञानसूर्यः उदेति इत्युक्ते
ज्ञानस्य प्रकाशः भवति
हा तत्र कीदृश एतद् तत्र ज्ञानः सूर्यम् इव अस्ति इति चिन्तनम् अस्ति ज्ञानः सूर्यः इव अस्ति अपि हृदयं कमलम् इव अस्ति अतः यदा ज्ञानसूर्यः हा कमलम् इव हृदयं विकसति समीचीनं भगिनि हा समीचीनं भगिनि अस्तु अपि तदनन्तरं यदा
यदा तमः वर्धते तदा व्यामोहः भवति
व्यामोहः
तमः
तमोगुण
तमोगुणः यदा
वर्धनं
भवति तदा व्यामोहः भवति
तदा व्यामोहः भवति तत्र यदा तदा इति विषये इदानीं तत्र वाक्यद्वयं दृष्ट्वा वयं जानीमः कीदृशः प्रयोगः एकस्मिन् वाक्ये द्वयमपि भवति नित्यसम्बद्ध पदद्वयम् इत्युक्ते एकमस्ति चेत् अन्यत् अपि अपेक्षितम् अस्ति तस्मिन् वाक्ये तत्र यथा तदा यथा तथा यत्र तत्र यत्र तत्र इदानीम् अद्य यदा आरम्भ्य यदा तदा कुर्मः तदनन्तरं किं प्रायशः यथा तथा अपि कर्तुं शक्नुमः तदनन्तरं पश्यामः
अर्जुनः विषीदति कृष्णः सान्त्वयति यदा अर्जुनः विषीदति तदा कृष्णः सान्त्वयति
धर्मस्य ज्ञानी अस्तु अग्रे करोतु
धर्मस्य ग्लानिः भवतः
भगवतः
अवतारः यदा धर्मस्य ग्लानिः तदा भगवतः अवतारः
समीचीनं भगिनि यदा धर्मस्य ग्लानिः भवति तदा भगवतः अवतारः भवति इति समीचीनम् अस्तु अस्तु अग्रे अन्य कोऽपि एकनिमिषः पश्यामः तत्र मधुसूदन मोदी अग्रे पठति वा
चित्तं विनयत् योगः उच्चेत् विनियतं चित्तं विनियतं योगः उच्यते यदा चित्तं विनियतं तदा योगः उच्यते
यदा चित्तं विनियतं तदा योगः उच्यते योगः इति उच्यते योगः उच्यते तत्र यदा एकं प्रथमं भवति तदा द्वितीयं भवति अथवा यदा प्रथमं भवति तदा एतद् अभवत् इति तत्र योगः अभवत् इति वदामः योगः इति उच्यते इति समीचीनं महोदय अस्तु अग्रे नरेश महोदय
द्रष्टा अनुपश्यति भगवद्वहं प्राप्नोति यदा द्रष्टा अनुपश्यति तदा भगवद्वहं प्राप्नोति तदा भगवद्वहं प्राप्नोति
यदा द्रष्टा अनुपश्यति तदा भगवद्भावं प्राप्नोति तत्र भगवतः भावं भगवद्भावं
भगवद्भावं
तत्र भगवतः इति तत्र भगवतः भावं षष्ठी भवति किन्तु तत्र समस्तपदे भगवत् इति प्रातिपदिकम् उपयुज्य भगवत् योगः भावं भगवद्भावं प्राप्नोति इति समीचीनम् प्रश्नः आसीत्
महोदय विनियतम् इत्युक्ते किं
तत्र तत्र विनियतम् इत्युक्ते तत्र महोदय तस्य किं लघ्वीकरणम् इति तत्र तस्य ग्रहणं भवति चेत् तत्र तद् चित्तं विनियतम् इत्युक्ते तत्र चित्तम् इति मनः इति चिन्तयामः तद् अत्र गच्छति तत्र गच्छति सर्वत्र गच्छति तत्र तस्य ग्रहणं निग्रहणं नियन्त्रणं तत्र लघ्वीकरणं तत्र चित्तं विशालमस्ति तस्मिन् अनेकाः विषयाः भवन्ति एतदस्ति अहम् अद्य एतत् कृतवान् अग्रे एतत् करोमि सः एतद् उक्तवान् सा एतद् उक्तवती अनेकाः विषयाः सन्ति खलु अतः विशालः अस्ति विशालम् अस्ति चित्तं तस्य लघ्वीकरणं बिन्दु इव यदि कुर्मः तद् योगः इत्युच्यते तस्य लघ्वीकरणं तत्र बृहत् अस्ति लघु करणीयमस्ति इत्युक्ते तत्र चिन्तनम् अधिकं न भवति विना चिन्तनं तत्र चिन्तनाभावः भवेत् इति चिन्तनस्य अभावः भवेत् इति तत्र विनियतम् इति तादृश चित्तं तत्र अस्तु अग्रे शोभा भगिनी अग्रे
यदा मोहकलिलं नश्यति तदा निर्वेदः भवति यदा तत्र मोह इत्युक्ते तमः कृतं मोहं यदा नश्यति तदा निर्वेदः इत्युक्ते विरक्तिः भवति इति अहं मन्ये महोदय निर्वेदः इत्युक्ते विरक्तिः इति आसीत्
प्रायशः निर्वेदः इति निर्वेदः इत्युक्ते तत्र मोहकलिलं नश्यति चेत् किमपि कस्मिन्नपि विषये उत्साहः न भवति इति विरक्तिः
विरक्तिः इति अपि अस्ति वा महोदय अस्ति
तदपि वक्तुं शक्नुमः इति मन्ये भगिनि सत्यं
वैराग्य अथवा
तादृशभावः भवति सत्यं भगिनि तदेव तदेव अत्र मोहकलिलं यदा भवति एतद् भवति इति सत्यम् अस्तु अग्रे तत्र वेदा भगिनि
महोदय अधर्मस्य अभ्युत्थानं भगवतः आविर्भावः अधर्मस्य अभ्युत्थानं भगवतः आविर्भावः यदा अधर्मस्य
आविर्भावः
तदा भगवतः आविर्भावः आविर्भावः अर्थः भगवतः आगतः वा
अवतारः अवतारम् इति आविर्भावः
अधर्मस्य अभ्युत्थानम् अभ्युत्थानम् इति
वर्धनं भगिनि तत्र धर्मस्य ग्लानिः इत्युक्ते तत्र धर्मः न्यूनः भवति इति इदानीं अधर्मस्य वर्धनं भवति
अग्रे पठामि
यदा यदा इति वाक्यं
यदा तदा भगवतः आविर्भावः
भगवतः इति षष्टि अधर्मस्यापि तत्र षष्टि षष्टि एव भगिनि अस्तु अग्रे तत्र उषा भगिनी
अस्ति यदा तदा उपयोगं कृते विभक्ति
समानमिति न समानमिति न न अपेक्षितं भगिनि न अपेक्षितं किन्तु तादृश अत्र तादृशरूपम् अस्ति इति अत्र तादृश अस्ति तावदेव किन्तु नियमः कोऽपि नास्ति तत्र यदा एषः एतद् भवति तदा तस्य किमपि वाक्यं भवति किन्तु तत्र पूर्णवाक्यम् अस्ति इति कृत्वा तत्र प्रायशः कर्तृपदम् अस्ति क्रियापदम् अस्ति सर्वं तत्र लघुवाक्यं तु भवति एव इत्युक्ते यदा अनन्तरम् एकं लघुवाक्यं तु भवेत् तदा अनन्तरमपि अन्यत् लघुवाक्यम् अतः क्रियापदद्वयं प्रायशः कर्तृपदद्वयम् अपि भवितुम् अर्हति किन्तु विभक्ति समानम् इति किमपि तादृशनियमः नास्ति अस्तु अग्रे
निश्चला बुद्धिः योगः भवति यदा निश्चला बुद्धिः तदा योगः भवति निश्चला बुद्धि इत्युक्ते चञ्चलबुद्धि नास्ति तदा योगः भवति
किमर्थं निश्चला इति अस्ति किमर्थं निश्चलः अस्ति इति नास्ति निश्चलः इति नास्ति
श्रीलिङ्गबुद्धिः
बुद्धिः इति श्रीलिङ्गपदम् अतः निश्चला बुद्धिः इति अस्ति अस्तु समीचीनं ललिता भगिनी अग्रे
హలో
వదసు భగిని వదసు భగిని
కోపి కోపి వచ్చి వా
లలిత భగిని సర్వే శృణ్వంతి వా
హా వదామి మమ సడన్లీ వెంట్ ఆఫ్ ఇంటర్నెట్ ఓకే నౌ ఐల్ డు వదామి వదామి वदामि कर्मसु अनुषज्यते योगारूढः भवति यदा कर्मसु अनुषज्यते तदा योगारूढः भवति कर्मसु इति सप्तमी विभक्ति अस्ति कर्मपदस्य यदा अनुषज्यते इति अर्थः अस्ति बन्धनं कर्माणां बन्धनम् अस्ति चेत् योगारूढः इति योग न योग अरु योगः न भवति इति रूढः अर्थं न जानाति
रूढः योग आरूढः आरूढः इति कोऽपि वदति वा आरूढः इत्युक्ते किम् यः अथवा या आरोहणं कृतवान् अथवा कृतवती इति तत्र योगस्य आरोहणं भवति इति योगारूढः भवति इति कर्मसु अनुषज्यते यः यदा कर्मसु अनुषज्यते तदा योगारूढः भवति तत्र तादृशस्थितिः भवति योगास्थितिः भवति कर्मसु अनुषज्यते इत्युक्ते तत्र यत् निर्दिष्टं कर्म अस्ति यद्यत् कर्तव्यमस्ति तत्सर्वं तस्य तदेव करणीयम् इति यत्र चिन्तनं भवति अन्यत् न करणीयम् इति चिन्तनं भवति तत्र योगः भवति इति किन्तु तत्र प्रायशः अधिकं वक्तव्यमस्ति किन्तु तावत् समीचीनं दिशा भगिनी अथवा दिशा महोदय वक्तुम् इच्छति वा अस्तु तत्र न शृणोमि यदि वक्तुम् इच्छति चेत् कृपया वदतु अस्तु अस्तु अग्रे
महोदय, तत्र अनुषज्यते इति अर्थं किं महोदय?
भगिनी उक्तवती, ललिता भगिनी पुनः वदति वा?
न श्रुतवती.
बन्धनम् अटाच्मेण्ट्
अटाच्मेण्ट्
अटाच्मेण्ट् अस्तु
क्लिङ्ग् क्लिङ्ग् टु
अस्तु अस्तु धन्यवादः भगिनि.
अहं वदामि वा महोदय?
हा अस्तु शुभदा भगिनी, इदानीं प्राप्तवती वा? अस्तु
शुभा भगिनी
प्रेषितवती. अस्तु इन्द्रियाणि विषयेभ्यः
निवर्तन्ते स्थितप्रज्ञः उच्यते. यदा इन्द्रियाणि विषयेभ्यः निवर्तन्ते तदा स्थितप्रज्ञः उच्यते.
तत्र
यदा इन्द्रियाणि विषयेभ्यः निवर्तन्ते विषयाणां समाप्तिः भवति.
तत्र निवर्तन्ते, निवर्तन्ते इत्युक्ते
समाप्तं
भवति. विषयेभ्यः निवर्तन्ते, विषयेभ्यः तत्र विभक्ति का? विषयेभ्यः
विषयेभ्यः चतुर्थी बहुवचन
अथवा दृष्ट्वा चतुर्थी अथवा पञ्चमी बहुवचनं समीचीनं भगिनि. अत्र किमर्थम् इति प्रश्नः न भवति खलु, इन्द्रियाणि किमर्थं निवर्तन्ते इति, तस्य उत्तरम् एतद् नास्ति खलु, खलु
पञ्चमी.
अतः पञ्चमी इन्द्रियाणि विषयेभ्यः निवर्तन्ते, तस्मात् अन्यत्र गच्छति इत्यर्थे. इन्द्रियाणि विषयेभ्यः निवर्तन्ते, यदा इन्द्रियाणि विषयेभ्यः निवर्तन्ते तदा स्थितप्रज्ञः उच्यते इति उच्यते. समीचीनं भगिनि. अस्तु अग्रे उषा भगिनी.
आं महोदय. कामः भवति, क्रोधः भवति. यदा कामः भवति तदा क्रोधः भवति.
तत्र एतद् अस्मिन् सन्दर्भे एकमपि वाक्यं कर्तुं शक्नुमः. तत्र पञ्चमी विभक्ति कारणपञ्चमी इति उपयुज्य
कामः क्रोधः भवति.
समीचीनं भगिनि. कामात् क्रोधः भवति इति तादृशवाक्यमपि वक्तुं शक्नुमः. समीचीनम्. अस्तु नरेश महोदय अग्रे.
सङ्गः भवति, कामः भवति. यदा सङ्गः भवति तदा कामः भवति.
समीचीनं महोदय. अस्तु अग्रे वंशीसुधा भगिनि.
यदा अभयं भवति तदा देवी सम्पत्
दैवी
सम्पत् अस्तु एकमेव पदम् इति दैवी सम्पत् भवति. पृथक् पृथक् पदानि पदं सः पदौ सः महोदय देवी
दैवी इति विशेषणम्
अस्तु अस्तु दैवी सम्पत् अस्तु महोदय.
यदा अभयं भवति तदा दैवी सम्पद् भवति. सम्पद् इति स्त्रीलिङ्गपदम् अस्ति, अतः दैवी इति दैवी सम्पद् इति रूपं भवति. तत्र देवः दैवीक इति वदामः खलु, तत्र दैवी इति भवति. देवस्य विषये किमपि अस्ति इति दैवी दैवज्ञः इति पदमस्ति खलु, यः जानाति इति, तत्र तादृश तत्र गीतास्वपने द्वितीयभागे अस्ति, किन्तु दैवी इति तत्र विशेषणमस्ति सम्पद् इति पद स्त्रीलिङ्गपदस्य. अस्तु अग्रे
अहं वदामि वा महोदय?
अस्तु भगिनि वदतु भगिनि.
एकः प्रश्नमस्ति, अभयं भवति यदा अभयं भवति तदा दैवी सम्पद् भवति, अर्थः का महोदय?
एतत् सर्वं प्रायशः भगवद्गीतायाः श्लोक वाक्य एतानि सर्वाणि भगवद्गीतायाः वाक्यानि इति मन्ये भगिनि, किन्तु तत्र अभयं, तत्र यदा भयं न भवति तदा तत्र दैवी सम्पद् भवति इत्युक्ते एकः अर्थः प्रायशः तदेव, तत्र निर्भयः यः अस्ति तत्र तस्मिन् दैवी सम्पद् अस्ति, निर्भयम् इति एव तद् दैवी सम्पद् एव खलु, तदपि चिन्तनं, तादृशचिन्तनमपि कर्तुं शक्नुमः. किन्तु किन्तु अधिकं तत्र प्रायशः वक्तव्यमस्ति, तत्र भगवद्गीता एव दृष्ट्वा वक्तव्यमस्ति.
यदा आत्मज्ञानं भवति तदा वैराग्यं भवति, वैराग्यमेव भवति,
वैराग्यं भवति. तत्र अत्र तत्र यदा कामः भवति तदा क्रोधः भवति, यदा सङ्घः
कामात् क्रोधः भवति,
तत्र
तदेव
कारणम् अपि कार्यं, तत्र किमपि एकं कार्यमस्ति, कारणमस्ति, अन्यत् कारणात् किं भवति, तत्र कार्यम् इति वदामः फलं तद् दत्तमस्ति. अतः तत्र यदा तदा इति विषये
आत्मज्ञानात् वैराग्यं भवति,
तद् अपि कारणं तस्य फलं तद् वक्तुम् इच्छामश्चेत् तत्र यदा तदापि तद् उपयुज्य तादृशभावः तयोः कारण अपि फलसम्बद्धः सम्बन्धः यः अस्ति तं सम्बन्धं सूचितुं यदा तदा इति वाक्यस्य प्रयोगं, तादृशवाक्यस्य प्रयोगः कर्तुं शक्नुमः अस्तु अग्रे शोभा भगिनि.
आं महोदय, क्षम्यतां, मम इण्टर्नेट् भग्नः जातः.
भग्नः जातः, अस्तु भगिनि, अस्तु
आगतवती. तत्र 13 वा महोदय?
हा 13, हा सत्यं भगिनि, ओ न न अग्रे 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 कामान्, कामान् कामान्
कामान् अस्तु. यदा कामान् प्रजहति, प्रजा हाति, तदा
प्रजहाति
प्रजहाति तदा स्थितप्रज्ञता भवति.
तत्र कामान्
मोहं प्रजहति, तत्र
प्रजहाति
जहाति, तत्र जहाति इति प्र उपसर्गपूर्वक कामान् यदा
तस्य उपरि जयं प्राप्नोति इत्युक्ते
आहुति इति वक्तुं शक्नुमः वा महोदय? तत् तस् कामान्
प्रायश तत् न जनामि भगिनि, किन्तु समीचीनमेव अस्ति. किन्तु
इत्युक्ते होमं कुर्मः इति अर्थे अपि भवति इति मन्ये महोदय.
तत्र त्यजति, तत्र त्यजति इति कामान् त्यजति, सत्यं, तत्र होमस्य विषये, तत्र एतत् समर्पणं, समर्पणम् इति
समर्पणं, होमे समर्पणं यदा
यथा यथा करोति तादृश कामान् सर्वान् तत्र तस्य समर्पणं यदि करोति, यदि भवति
तथा सः अथवा सा
न भगिनि, तत्र यदा सा यदा काम तत्र कामान् समर्पयति तदा स्थितप्रज्ञता भवति, अथवा यः अथवा या कामान् प्रजहाति सः अथवा सा स्थितप्रज्ञा अथवा स्थितप्रज्ञः भवति. स्थितप्रज्ञता इति भावः अस्ति भगिनि, तत्र यस्मिन्
स्थितप्रज्ञः अथवा स्थितप्रज्ञा
स्थितप्रज्ञः अथवा स्थितप्रज्ञा इति समीचीनम् अस्तु. अग्रे शुभदा भगिनि अग्रे वदति वा?
आं महोदय, सर्वं नश्वरं भयं कुतः? यदा सर्वं नश्वरं तदा भयं भयस्य अभावः.
न न न, अत्र भयं कुतः? किमर्थं भयं सर्वं नश्वरम् एव अतः किमर्थं भयम् इति तावदेव सर्वं नश्वरं यदा सर्वं नश्वरं इति अस्तु अस्तु तर्हि तत्र यदा तदा इति विषये किञ्चित् दृष्टवन्तः इदानीं तत्र तत्र प्रसिद्धश्लोकः अस्ति तदनन्तरं तत्र यथा तथा इति पश्यामः तत्र मधुसूदन महोदय एतत् पठति वा तत्र श्लोकं यदस्ति अग्रे मधुसूदन महोदय
क्षम्यतां महोदय एतं श्लोकान् उच्चैः पठत यदा तदा हि यदा यदा हि धर्मस्य ग्लानिर्भवत् भारत अभ्युत्थानधर्मस्य तदास्मानं सुजान्यहम् यदा यदा ग्लानिः भवति अधर्मस्य च उत्कर्षः भवति तदा अहम् अवतारं करोमि इति श्रीकृष्णः वदति
अस्तु समीचीनं महोदय हा तत् प्रसिद्धश्लोकः तत्र सर्वे जानन्ति खलु यदा यदा हि धर्मस्य ग्लानिर्भवति भारत भारत इति इत्युक्ते कः अत्र
अर्जुनः
अर्जुनः यदा यदा अभ्युत्थानम् अधर्मस्य तदा आत्मानं सृजाम्यहम् आत्मानम् इति द्वितीयविभक्तिः अस्ति सृजाम्यहम् अहम् आत्मानं सृजामि अवतारम् अहमेव अवतारं करोमि तत्र यदा तदा पूर्वम् आसीत् किन्तु अत्र अस्ति यदा 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 अपि यदा तयोः मध्ये कः भेदः केवलम् एकवारं नास्ति यदा इति यदा यदा इति अस्ति अतः पुनः इति चिन्तयितुं शक्नुमः
पुनः
किन्तु एव्रि टैम् इति प्रत्येकवारं यदा यदा एतद् भवति तदा तदा एतदपि भवति इति यदा यदा एतद् इति अर्थे यदा यदा तत्र यदा एतद् भवति तत्र वेन् इति किन्तु यदा यदा इति वेनवर् इति अस्तु अस्तु अग्रे गच्छामः तत्र किञ्चित् समयः तु अस्ति अतः तत्र अग्रिमविषयस्य उद्घाटनं कर्तुं शक्नुमः यथा तथा इति इदानीं अस्तु तर्हि तत्र ललिता भगिनी अग्रे पठति वा
यथा कृष्णः वदति तथा अर्जुनः करोति
पुनः एकवारं वदतु भगिनि
यथा कृष्णः वदति तथा अर्जुनः करोति
अग्रे
यथा अश्वः धावति तथा गजः न धावति
अतः तत्र यथा तथा भवति चेत् तत्र कालस्य विषयः वा कारणस्य विषयः वा कारणम् अपि तस्य फलम् इति विषयः वा अथवा एकं भवति चेत् अन्यत् भवति इति तादृश
एकं भवति चेत् अन्यत् भवति
यथा तथा मध्ये वा यथा तथा मध्ये तत्र पूर्वमासीत् यदा तदा इदानीम् अस्ति यथा तथा
यथा तथा देन्
हा यथा तथा इति तत्र किञ्चित् भेदः अस्ति. अस्तु तत्र नरेश् महोदय किञ्चित् वदतु महोदय.
यथा कृष्णः वदति तथा अर्जुनः करोति.
तत्र वयं किं वक्तुम् इच्छामः, यदा कृष्णः वदति तदा अर्जुनः करोति इति तद् वक्तुम् इच्छामः वा? न खलु
महोदय,
तद् भेदः, तत् अन्यत् अन्यः अर्थः भवति तत्र.
यादृश कृष्णः वदति तादृश अर्जुनः करोति.
तदेव यत् कृष्णः वदति तदेव अर्जुनः करोति. यत् कृष्णः सूचयति तदेव अर्जुनः करोति. अतः तत्र यदा तदा इति नास्ति, कालस्य विषयः नास्ति. तत्र प्रायशः भावस्य विषये अथवा क्वालिटि इति तस्य विषयः अस्ति इति तदपि वक्तुं शक्नुमः. यतोहि तत्र द्वितीयवाक्यः वाक्यं किम् अस्ति, यथा अश्वः धावति
तथा गजः न धावति.
हा अतः तत्र धावनस्य भावः अथवा तत्र कीदृशं धावनम् इति तस्मिन् विषये तत्र यथा तथा इति तुलना इति तत्सर्वं यथा तथा उपयुज्य वक्तुं शक्नुमः. तुलना कर्तुम् अपि यथा तथा इति उपयोगं कर्तुं शक्नुमः. अस्तु तर्हि अग्रे उषा भगिनी.
आं महोदय. यथा वासांसि जीर्णानि भवन्ति तथा शरीराणि जीर्णानि भवन्ति. भगवद्गीतायाः श्लोकः अस्ति महोदय. जीर्णानि भवन्ति तथा शरीराणि जीर्णानि अपि भवन्ति.
तत्र वासांसि, तत्र नपुंसकलिङ्गं मनः, मनसि, मनांसि इति मन्ये. तत्र सकारान्त नपुंसकलिङ्गपदं गीतासोपनि द्वितीयभागे भवति एतादृशपदं मनः, मनसि, मनांसि. तत्र वासांसि जीर्णानि भवन्ति तथा शरीराणि जीर्णानि भवन्ति. तत्र वासः इत्युक्ते
वस्त्राणि.
वस्त्रं वासांसि इति वस्त्राणि. तत्र वासांसि इति नपुंसकलिङ्गपदम् इति ज्ञातुं शक्नुमः वा? तत्र वाक्यं दृष्ट्वा
जीर्णानि अपि नपुंसकलिङ्ग अस्ति महोदय.
बहुवचनम् अस्तु, तदपि नपुंसकलिङ्ग बहुवचनम् अस्ति. अतः तत्र किं वासांसि अपि नपुंसकलिङ्ग बहुवचनपदम् अस्ति. यतोहि तत्र विशेषभावः सम्बन्धः अस्ति अत्र.
शरीरं नपुंसकलिङ्ग अस्ति, अतः जीर्णानि बहुवचनं. जीर्णः जीर्णानि, शरीरं शरीराणि.
हा समीचीनं भगिनि. यथा वस्त्रम् अथवा वस्त्राणि जीर्णानि भवन्ति तथा तत्र
शरीरमपि
अस्माकं कृते वस्त्रं यादृशम् अस्ति तत्र जीर्णानि भवन्ति. एकस्य अनन्तरम् अन्यत् वस्त्रं भवति. तादृशी परिस्थितिः अस्ति आत्मनः कृते. आत्मा एकं शरीरं धरति, तदनन्तरम् अन्यत् शरीरं धरति. अतः शरीराणि जीर्णानि भवन्ति आत्मनः कृते. अस्माकं कृते वस्त्राणि जीर्णानि भवन्ति. तावदेव, समीचीनम्. अस्तु अग्रे वंशीसुध भगिनि अग्रे.
आं महोदय, श्रूयते वा महोदय? श्रूयते वा? यदा देहे कौमार यथा देहे कौमारद् अवस्था तथा आत्मनि अनेकदेहावस्था. आं महोदय, यथा देहे कौमारद् अवस्था तदा आत्मनि अनेकदेहावस्था किमर्थं कथं
भगिनि भगिनि तत्र यत् अस्तु अस्तु तत्र पश्यामः तत्र देहे इति सप्तमी खलु
आम् महोदय आम् महोदय
देहे देहे
सप्तमी अस्ति
सप्तमी आत्मनि अपि सप्तमी तत्र अनेकदेह योगः अवस्था अवस्था इत्युक्ते स्थितिः खलु तत्र आत्मा अनेकेषु देहेषु भवति खलु तत्र एकं देहं धरति तदनन्तरम् अन्यत् शरीरम् अथवा देहं धरति इति कृत्वा तत्र अनेकदेह अवस्था अस्ति आत्मनि तथैव तत्र किन्तु तत्र पूर्वं किमस्ति देहे कौमाराध्यवस्था इत्युक्ते अवस्था अन्तिमपदमस्ति अवस्था तस्य पूर्वं किमस्ति कौमारादि कौमारादि योगः अवस्था ईकारः योगः अकारः यकारः खलु अतः कौमाराध्यवस्था इति भवति केवलं कौमारावस्था इति न कौमारावस्था तदनन्तरं सर्वं वृद्धावस्था सर्वं कौमाराध्यवस्था यथा देहे तथा आत्मनि अनेकदेह अवस्था अनेकदेहावस्था समीचीनं वा भगिनि तत्र तत्र अनेकदेह केवलम् एका अवस्था नास्ति इति तावदेव
अस्तु
अस्तु अग्रे मधुसूदन महोदय
यथा रविः लोकं प्रकाशयति तथा क्षेत्री क्षेत्रं प्रकाशयति यथा रविः लोकं प्रकाशयति तथा क्षेत्री क्षेत्रं प्रकाशयति क्षेत्री क्षेत्रं
तत्र क्षेत्री इति प्रायशः तत्र रविः लोकं प्रकाशयति तथा अस्तु प्रथमतया तत्र एतत् पश्यामः तत्र यथा तथा इति यथा एषः भवति एषः लोकं प्रकाशयति तथा क्षेत्री क्षेत्रं प्रकाशयति प्रथमतया तद् क्षेत्री इति अग्रे पश्यामः किन्तु कोऽपि अस्ति क्षेत्री अथवा कापि अस्ति क्षेत्री सः अथवा सा क्षेत्रं प्रकाशयति लोकं प्रकाशयति रविः क्षेत्रं प्रकाशयति क्षेत्री तत्र क्षेत्रम् इत्युक्ते किं क्षेत्रम् इत्युक्ते यत्र किं कृषिकार्यं भवति तत् क्षेत्रं वा अथवा अन्यत् अस्ति वा अत्र कृषिकार्यस्य स्थानं नास्ति खलु तत्र क्षेत्रम् इत्युक्ते वदतु महोदय
क्षेत्रमित्युक्ते
शरीरं वयमेव तत्र क्षेत्राणि वयमेव क्षेत्राणि तत्र प्रत्येकक्षेत्रेषु यः निवासं करोति क्षेत्रे यः अस्ति सः क्षेत्री आत्मा इति अतः आत्मा एव क्षेत्रं प्रकाशयति स तत्र आत्मन तत्र पूर्वं दृष्टवान् खलु तत्र सुवर्चलायाः कथायां परमात्मनः कारणादेव जीवात्मा अहं पश्यामि शृणोमि तत्र सर्वं यत् कुर्मः परमात्मनः कारणादेव परमात्मा क्षेत्रं प्रकाशयति तेन एव सर्वं भवति इति कृत्वा क्षेत्री इत्युक्ते आत्मा इति अत्र आत्मना क्षेत्रं क्षेत्रस्य प्रकाशं भवति तत्र अस्तु अग्रे लक्ष्मी भगिनी अग्रे एतत्
भस्मसात्
तथा ज्ञानाग्निः कर्माणि भस्मसात् कुरुते यथा काष्ठानि भस्मी
दहति भस्मं करोति
न दहति भस्मी दहति तथा ज्ञानम् इव ज्ञान इव अग्निः कर्माणि
न न ज्ञानमिव अग्निः न ज्ञानमिव अग्निः न अग्निः इव ज्ञानम् अग्निः इव
ज्ञानम्
हा ज्ञानं नपुंसकलिङ्गे अस्ति भगिनि हा अग्निः इव ज्ञानं
अग्निः इव ज्ञानम् अस्माकं कर्माणि भस्मीकरोति
हा भस्मीकरोति समीचीनं भगिनि हा भस्मीकरोति समीचीनं रूपम् अस्ति हा तत्र सर्वं भस्मं
भस्मसात् इति कीदृश
हा तत्र प्रायशः प्रत्ययः अस्ति भगिनि तत्र भस्मसात् अस्ति तत्र भस्मसात् कुरुते इति तत् भस्मीकरोति इति चिन्तनं भवति तत्र तत् सर्वं भस्मरूपं भवति इति अतः भस्मसात् इति तत्र भस्मरूपम् इति चिन्तयतु भस्मरूपं कुरुते इति तत्र प्रत्ययः कः तस्य नियमः कः इति तद् न जानामि भगिनि द्रष्टव्यमस्ति हा किन्तु तत्र हा किन्तु तत्र भस्मरूपम् इति अर्थः अस्तु अग्रे तु तत्र सर्वे वयं जानीमः यथा राजा तथा प्रजाः यथा कर्म तथा बुद्धिः यथा इच्छसि तथा कुरु एतत् सर्वं प्रसिद्धः एव अस्ति अतः तद् तत्र किमपि वक्तव्यं नास्ति इति मन्ये अस्तु तर्हि अग्रे अत्र समापयामः समयः अपि जातः अस्तु समीचीनमस्ति अभियं विषये कथं परिशीलितवन्तः यदा तदा अपि यथा तथा तस्मिन् विषये किञ्चित् अभ्यासमपि कृतवन्तः अस्तु तर्हि विरमाम अग्रिमे वर्गे मिलामः सर्वेभ्यो
धन्यवादः महोदय
धन्यवादः
शुभदा सेण्ड् टु ईमेल्स् टु यू ओके